रूपिणी विद्यारंभम करिष्यामि सिद्धिर भवतु मे सदा। पठामि संस्कृतम नित्यम वदामि संस्कृतम सदा। ध्यायामि संस्कृतम सम्यक् वंदे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वंदे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वंदे संस्कृतमातरम्। वंदे संस्कृतमातरम्। नमस्कारः। भोजचम्पू सुन्दरकाण्डे वयम् अशोक वनिका भंजन प्रसंगे स्मः। ग्रीष्मकालात् ग्रीष्म अवकाशात् पूर्वम् अस्माभिः एषः भागः दृष्टः, अतः दीर्घविरामः आसीत् इत्यतः किञ्चित् पुनस्मारणं कृत्वा अग्रे गच्छामः। अत्र गद्यभागात् पुनस्मारणं कुर्मः, तत् क्षणं क्षणदाचराणाम् इति। क्षणदाचराणां विशतामेव निष्पादितरङ्गनिष्पेषकृत्यः चैत्यप्रासादम् उत्पाटितस्तम्भजातजातवेदसा दग्ध्वा भूयोऽपि उपाश्रिततोरणः समीरणसुतः बभूव। एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेः युगपतेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोः विंशतिदृष्टयः। तदा तत्क्षणं तस्मिन् समये राक्षसानां क्रमशः मरणं, राक्षसगणाः प्रेषिताः रावणेन, पुनः तस्य सचिवाः प्रेषिताः, असङ्ख्याकाः राक्षसाः इति वयं दृष्टवन्तः, 80,000, पुनः पञ्च मुख्यसेनानायकाः सचिवाः प्रेषिताः, ते अपि मारिताः। एवं क्रमशः बलवतां राक्षसानां हनुमद्वारा मारणम् इति श्रुत्वा कुपितः निशाचरपतिः रावणः स्वपुत्रम् इन्द्रजित्तं दृष्टवान् इति अत्र विषयः। किं कृतवान् हनुमान् एतान् मारयित्वा? सः एतान् सर्वान् अपि मारयित्वा उद्घोषणमपि कृतवान्, अहं रामदूतोऽस्मि इति। पुनः सः एवं सर्वान् मारयित्वा तोरणम् आश्रितवान्, तोरणे पुनः गत्वा उपविष्टवान्। एतत् वृत्तान्तं श्रुत्वा कुपितः रावणः स्वपुत्रं दृष्टवान्। अत्र कविः स्व काव्यशैल्या वदति निशाचरपतेः युगपदेव निपेतुः पतितानि, तस्य दृष्टिः पतिता, कति? विंशति दृष्टयः इति, यतः दशाननः, अतः विंशतिः दृष्टयः स्वपुत्रे सुत्रामजिति। सुत्रामः नाम इन्द्रः, सुत्रामा इन्द्रः, सुत्रामानं जितवान् इति सुत्रामजित् इन्द्रजित्, तस्मिन् तस्य दृष्टिः पतिता। यदा स्वपुत्रे इन्द्रजिति दृष्टिः पतिता, तं पुत्रं प्रचोदयितुं प्रेरयितुं रावणः तस्य प्रशंसाम् अकरोत्। किमुक्त्वा प्रशंसाम् अकरोत्? अस्मिन् भूतले वा स्वर्गे वा आकाशे वा त्वया सह योद्धुं न कोऽपि त्वत्तुल्यः अस्ति इति वदति। अग्रिमश्लोके पश्यामः, अनिमिषभुवने वा व्योम्नि वा भूतले वा समरम् उपगतं त्वां वीक्षितुं कः समर्थः इति नुतिवचनेन श्लाघयन् मेघनादं लवगम् इह नयेति प्राहिणोद् राक्षसेन्द्रः. अत्र क्रियापदमस्ति प्राहिणोत्. प्राहिणोत् इत्युक्ते प्रेषितवान्. अन्वयं पश्यामः, किम् उक्त्वा प्राहिणोत्, कीदृशं कथनं तस्य आसीत् इत्युक्ते, अनिमिषभुवने स्वर्गलोके न निमिषन्ति इति अनिमिषाः, तेषां नेत्रयोः स्फुरणमेव न भवति, नेत्रस्पन्दनं न भवति देवाः तेषाम्. अनिमिषभुवने तादृश देवलोके वा व्योम्नि वा आकाशे वा भूम्यां वा भूतले वा युद्धम् उपगतं, युद्धं प्राप्तं त्वां, हे इन्द्रजित्, त्वां वीक्षितुं, कोऽपि त्वां द्रष्टुमेव न समर्थः. युद्धकरणं तु दूरे तिष्ठति इति तस्य तात्पर्यम् इति नुतिवचनेन प्रेरणावचनेन मेघनादं श्लाघयन् प्रशंसन् राक्षसेन्द्रः प्लवगम् इह नय तं वानरं, प्लवगम् इह आनय इति मेघनादं प्राहिणोत् प्रेषितवान्. अस्तु, मेघनादः आगतवान्, तत्र युद्धं प्रवृत्तम्. कीदृशं युद्धं? नेतुं शोकरसं निशाचरपतेः, हन्तुं चमूं रक्षसां, तस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनं, सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीम् अग्निना शुद्धां कर्तुम्, अमुष्य वासवजिता जातः रणः तोरणे. तत्र चैत्यतोरणे मुख्यद्वारे नगरस्य, नगरं परितः प्रधाना मुख्या भित्तिः भवति, तस्याः बहिर्भित्तिः इति वदामः, औटर् वाल् यद् नगरं रक्षति, तस्याः भित्तेः यद् मुख्यद्वारं भवति तदेव चैत्यम् इति उच्यते. तत्र चैत्यगोपुरं तदेव चैत्यतोरणम् इति कथ्यते. किमर्थम् एतादृशं युद्धं जातं? नेतुं शोकरसं निशाचरपतेः, रावणस्य शोकं प्रापयितुं, रक्षसां चमूं हन्तुं, राक्षसानां सेनां मारयितुं, पुनः तस्य रावणस्य अन्तःपुरयोषितां मानं विना रोदनं रचयितुं, रावणस्य अन्तःपुरस्त्रीणां निस्सीमरोदनं रचयितुं, सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीम् अग्निना शुद्धां कर्तुम्, अमुष्य अस्य, अमुष्य इत्युक्ते अधः शब्दस्य षष्ठी, अमुष्य अस्य हनुमतः वासवजिता इन्द्रजिता मेघनादेन सह तोरणे चैत्यगोपुरे रणः जातः. अत्र एकः विषयः अस्ति, सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीम् अग्निना शुद्धां कर्तुम् इति अस्ति. वयं जानीमः रावणः तादृशं तपः कृतवान् येन सः अपरिमितं बलं प्राप्तवान्, तेन सह देवाः अपि तस्य दासीभूताः, तस्य दासभूताः. किम् अभवत्? यदा देवाः अपि तस्य दासायन्ते स्म, तदा सूर्यः चन्द्रः इति सर्वे अपि तस्य अनुमतिं विना लङ्कां प्रवेष्टुमपि न शक्नुवन्ति. अतः एव अत्र उक्तं सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरी. सूर्यस्य प्रवेशः, सूर्योदयेन किं भवति? तेजः प्रकाशः प्रसरति, अन्धकारः नश्यति, ஜீவனமேவ ஸ்பந்ததே கிள தாதிருஷ சூரியஸ்ய பிரவேசம் பிரவேசம் எத்ர நிஷித்தஹ ராவணேன சா நகரி பிரவேச விகலா அபவத் லங்காபுரி. சூரிய ஆதித்ய ஹ்ருதய ஸ்தோத்ரே சூரியஸ்ய விஷய எவம் உக்தம் தேஜசாமபி தேஜஹ இதி. தாதிருஷஸ்ய சூரியஸ்ய யஹ தேஜசாமபி தேஜஹ அஸ்தி தஸ்ய ஏவ பிரவேசஹ நிஷித்தஹ சேத் தது அசுபம் பவதி அசுபாய பவதி கிள. அதஹ தாதிருஷம் தாதிருஷீம் லங்காபுரிம் அக்னினா ஸ்வபுச்சேன அக்னிம் ஜ்வாலித்தவான் உத்தீபித்தவான் தேன அக்னினா லங்காம் சுத்தாம் கர்த்தும் லங்காம் சோதயித்தும் லங்காம் பாவயித்தும் அஸ்ய ஆஞ்சநேயஸ்ய வாசவஜிதா இந்திரஜிதா துவாரே சைத்யத்வாரே ரணஹ அபவத். கீதிருஷம் யுத்தம் அபவத் சங்கிராம துர்தினே தஸ்மின் ஜஹர்ஷ ஷரவர்ஷிணி பர்ஹீவ மேகநாதேன மேகநாதேன மாருதி. அத்ர யமக ஸ்லேஷ பிரயோகத்வாரா கவி சமத்கிருதிம் உபாதயதி. சங்கிராம துர்தினே யுத்த தினே துர்தினம் கோரம் தினம் அஸ்தி யுத்த திருஷ்டியா. அந்யத் துர்தினம் இத்யுக்தே மேகாச்சன்னம் தினம் அபி அதஹ அத்ர ஸ்லேஷஹ பவதி. மேகஸ்ய நாதஹ மேகநாதஹ மேகாஹ சப்தம் குர்வந்தி கிள சஹ அபி ஏகார்த்தஹ. அன்யா வயம் ஜானீமஹ மேகநாதஹ இதி ராவணபுத்ரஹ. தர்ஹி யதா பர்ஹி மயூரஹ மேகநாதேன ஹர்ஷதி சந்தோஷம் ப்ராப்னோதி பிரசன்னஹ பவதி ததா கஸ்மின் தினே மயூரஹ மேகம் மேகநாதம் ஸ்ருத்வா பிரசன்னதாம் ப்ராப்னோதி துர்தினே யதா கிருஷ்ணமேகாஹ அச்சன்னாஹ பவந்தி தஸ்மின் தினே இதி ஏக அர்த்தஹ. அபரஹ அர்த்தஹ சங்கிராம துர்தினே ஆஞ்சநேயஹ ஹர்ஷம் ப்ராப்தவான் யதா மயூரஹ மேகநாதம் ஸ்ருத்வா ஹர்ஷம் ப்ராப்னோதி ஆஞ்சநேயஹ மேகநாதம் த்ருஷ்ட்வா தஸ்ய ஆஹ்வானம் யுத்தார்த்தம் தது ஸ்ருத்வா ஜஹர்ஷ ஹர்ஷம் ப்ராப்தவான். புனஹ தத் தினம் கீதிருஷம் ஆசீத் ஷரவர்ஷி தினம் ஷராஹ வர்ஷந்தி ஷராஹ வர்ஷந்தி ஷரஹ இத்யுக்தே பாணஹ ஷரம் இத்யுக்தே ஜலம் அதஹ ஜலவர்ஷிணி தினே இதி ஏகஹ அர்த்தஹ. அபரஹ அர்த்தஹ அஸ்தி பாணம் பாணாஹ வர்ஷந்தி தாதிருஷே தினே. அத்யதனம் பாடம் ஆரபாமஹே அஹம் கத்ய பாகம் படாமி பவந்தஹ அனுவதந்து ததனு
ததனு
யாதுதான பல பிரதான நிதன க்ருத்தஹ
யாதுதான பல பிரதான நிதன க்ருத்தஹ
விவிதாயுத வைதத்யம் விமிருஷ்ய
விவிதாயுத வைதத்யம் விமிருஷ்ய
விஜயஸ்ரீ சங்கத கந்தம்
விஜயஸ்ரீ சங்கத கந்தம்
கந்தவஹநந்தனம்
கந்தவஹநந்தனம்
சதானந்தாஸ்திரேண பவந்த தசகந்தராத்மஜஹ
சதானந்தாஸ்திரேண பவந்த தசகந்தராத்மஜஹ.
ததனு ததஃ பரம் யதா சர்வான் மாரயித்வா ததஹ பிரேஷயித்வா யதா அந்யதேகம் தோரணம் கத்வா உபவிஷ்டவான் ஆஞ்சநேயஹ ததஃ பரம் அனந்தரம் யதா இந்திரஜிதம் திருஷ்ட்வா ஹர்ஷம் ப்ராப்தவான் ததஃ பரம் யாதுதான கிமர்த்தம் ஹர்ஷம் ப்ராப்தவான் இத்யுக்தே தஸ்ய லக்ஷ்யம் கிம் சீக்ராதி யாவத் யதா சீக்ரம் ராவணஸ்ய சமீபே கந்தவ்யம் இதி. அதஹ இதானீம் தஸ்ய சா வேளா ஆகதா इति मत्वा सः सन्तोषम् अनुभवत्। ततः परं यातुधानबलप्रधाननिधनक्रुद्धः, यातुधानाः इत्युक्ते राक्षसाः, बलम् इति सेना अपि भवति, राक्षससेना। वयं रघुवंशे दृष्टवन्तः बलम् इति सेना इति भवति, अङ्गानि, षड् अङ्गानि भवन्ति राज्यस्य, तत्र कोशः बलम् इति भवति, बलम् इत्युक्ते सेना। यातुधानबल राक्षससेना प्रधान, राक्षससेना प्रधानस्य निधनेन कुपितः, प्रधानसेनानायकः यः आसीत् तस्य निधनम् अभवत् इति ज्ञात्वा क्रुद्धः, कुपितः, विविधायुधवैधत्यं विमृश्य, विभिन्नानाम् आयुधानां प्रयोगेण किमपि प्रयोजनं न भवति इति विचिन्त्य, बहूनि आयुधानि सन्ति इन्द्रजितः हस्ते, यान् सः प्रयोक्तुमपि सम्यक् जानाति, किन्तु तानि अस्त्राणि, तानि शस्त्राणि एतस्य उपरि कार्यं न कुर्युः इति सः जानाति। अतः तद् विचार्य, सम्यक् विचिन्त्य, वैतथ्यम् इत्युक्ते विफलता, व्यर्थता, विभिन्नानि आयुधानि अपि तस्मिन् न प्रभावं न जनयन्ति, आञ्जनेयं न बाधेरन्, तं न बाधन्ते इति सम्यक् ज्ञात्वा, केन कारणेन तादृशमस्ति इत्युक्ते सः विजयश्रीसङ्गतगन्धः, विजयश्रिया विजयलक्ष्म्या युक्तः अस्ति, विजयलक्ष्म्या जुष्टः अस्ति आञ्जनेयः। अत्र गन्धः इत्युक्ते सम्बन्धः, विजयश्री विजयश्रियाः सामीप्येन सम्बन्धं प्राप्य गन्धवः नन्दनः, गन्धं वहति इति गन्धवः वायुः, वायुपुत्रः, तं गन्धवः नन्दनं सतानन्दास्त्रेण ब्रह्मास्त्रेण बबन्ध बद्धवान्। कः बद्धवान्? दशकन्धरस्य आत्मजः, दशाननस्य रावणस्य पुत्रः इन्द्रजित्। भावार्थः अस्ति, ततः परं राक्षससेनानायकानां संहारेण बहूनां नायकानां, पञ्चसेनाग्रान् सः मारितवान् किल आञ्जनेयः, तेषां मरणं, शोक मरणसमाचारं श्रुत्वा कुपितः दशग्रीवपुत्रः, कुपितः इन्द्रजित्, नानाविधानि अपि अस्त्राणि हनुमन्तं न पीडयेयुः, न बाधेरन् इति विगणय्य, इति सम्यक् विचिन्त्य, विजयलक्ष्म्याः सम्बन्धं प्राप्तवन्तम् एनं पवनपुत्रं ब्रह्मास्त्रेण निगृहीतवान्, ब्रह्मास्त्रेण तस्य बन्धनं कृतवान्। अग्रे तेन दिव्यास्त्रेण,
तेन दिव्यास्त्रेण
विवशशरीरं एनं,
विवशशरीरमेनं
विशिताशनाः,
विशिताशनाः
क्षणवल्कलैः बबन्धुः,
क्षणवल्कलैः बबन्धुः
तेन दिव्यास्त्रेण, दिव्यमस्त्रं किम् अत्र? ब्रह्मास्त्रम्। ब्रह्मास्त्रेण बन्धनम् अभवत् इन्द्रजित्, हनुमन्तं ब्रह्मास्त्रेण बद्धवान्, किन्तु वराकाः इति राक्षसाः न जानन्ति ब्रह्मास्त्रस्य प्रभावं, ते चिन्तयन्ति अस्तु एतम् इतोपि सम्यक् एतस्य बन्धनं वयं कुर्मः इति मत्वा, सर्वे अपि राक्षसाः स्वस्वमत्या यद्यद् प्राप्तं, रज्जुः वा षणः, षणः इत्युक्ते जूट्, वल्कलं वृक्षस्य त्वक्, तेन निर्मिता रज्जुः, एतानि वस्तूनि स्वीकृत्य, एतानि सूत्राणि स्वीकृत्य हनुमतः बन्धनं कुर्वन्ति। तेन दिव्यास्त्रेण ब्रह्मास्त्रेण विवशशरीरं, परवशगतशरीरम्, इदानीम् आञ्जनेयः बद्धः जातः, तादृशः विवशशरीरः, विवशं शरीरं यस्य सः विवशशरीरः तम्। विवशम् इत्युक्ते सः बद्धः अभवत् इति अर्थः, स्वतन्त्रः नास्ति, केनापि अस्त्रेण बद्धः। विवशशरीरं परवशशरीरम् इति अर्थः। एनम् आञ्जनेयं पिशिताशनाः, पिशितमश्नन्ति मांसभुजः राक्षसाः, पिशिताशनाः राक्षसाः क्षणवल्कलैः। क्षण इति गोळी अस्ति किल, तद् जूट्, तद् सूत्रं। वल्कलम् इत्युक्ते वृक्षस्य त्वचा निर्मितं रज्जु, निर्मिता रज्जु। तैः क्षणवल्कलैः एनम् आञ्जनेयं बबन्धुः, एतम् आञ्जनेयं बद्धवन्तः ते। अग्रे श्लोकं पठामः। समारुतेर्नैर्तपाश जन्म,
समारुतेर्नैर्तपाश जन्म,
हो भवत् बन्ध विमोक्ष हेतुः,
बन्धो भव द्वन्द्व विमोक्ष हेतुः, पुरापुलस्त्यान्वयपांसनेन
दीकृतानां सुरसुन्दरीणां,
मन्दीकृतानां सुरसुन्दरीणां।
पदच्छेदः सः मारुतेः नैरृतपाशजन्मा बन्धः अभवत्, बन्धविमोक्षहेतुः पुरा पुलस्त्यान्वयपांसनेन बन्दीकृतानां सुरसुन्दरीणाम्। आञ्जनेयस्य बन्धनं सुरकन्यानां मोक्षस्य हेतुः अभवत् इति भावः। यथा वयं श्रीकृष्णस्य विषये अपि श्रीमद्भागवते शृणुमः, श्रीकृष्णस्य कारावासे जन्म संसारे विद्यमानानां मोक्षाय, मोक्षस्य हेतुः अभवत्। तथैव मारुतेः बन्धनम् अन्येषां मोचनस्य कारणम् अभवत् इति भावः। सः असौ, सः बन्धः इति अर्थः अत्र। सः मारुतेः पवनपुत्रस्य नैरृतपाशजन्म, नैरृतः इत्युक्ते राक्षसः, नैरृतः इत्युक्ते राक्षसः, नैरृतपाश राक्षसानां पाशः बन्धनं रज्जुः, राक्षसानां पाशेन कृतः बन्धः, राक्षसानां राक्षसैः रज्ज्वा निर्मितः बन्धः, तद् बन्धनम् अभवत् जातः। किम् अभवत्? बन्धविमोक्षहेतुः, बन्धनात् मुक्तेः कारणम् अभवत्। केषां? बन्दीकृतानां सुरसुन्दरीणां। कदा अभवत्? पुरा। केन एताः सुरसुन्दर्यः बन्दीकृताः? पुलस्त्य अन्वयपांसनेन। पुलस्त्य इति महर्षिः अस्ति, किन्तु कुलं तु उत्तमकुलं, किन्तु तस्मिन् कुले रावणः तस्य कुलस्य कलङ्कभूतः, अतः एव तं कुलपांसनः इति अत्र तस्य विषये उक्तमस्ति। कुलस्य अन्वय, कुलस्य वंशे पांसनः, कुलस्य कलङ्कभूतेन रावणेन बन्दीकृतानां सुरसुन्दरीणां बन्धविमोक्षहेतुः अभवत् आञ्जनेयस्य बन्धः इति अर्थः। आकाङ्क्षां पश्यामः। अभवत् इति क्रियापदं, कः अभवत्? सः बन्धः। अत्र कः इति, सः बन्धः इति एव कर्तृपदं, बन्धः अभवत्। कीदृशः बन्धः? नैरृतपाशजन्मा, राक्षसरज्जुनिर्मितबन्धः इति अर्थः। कस्य बन्धः? मारुतेः बन्धः, मारुतेः बन्धनं। सः कीदृशः अभवत्? बन्धविमोक्षहेतुः अभवत्, बन्धनात् मोक्षहेतुः। बन्धनात् स्वतन्त्रता प्राप्तवत्यः सुरसुन्दर्यः। कासां बन्धविमोक्षहेतुः अभवत्? सुरसुन्दरीणां, स्वर्गलोककन्यानां। किमर्थं स्वर्गलोककन्याः बन्धीकृताः? रावणेन ताः बन्धीकृताः, ताः दासीकृताः। कीदृशानां सुरसुन्दरीणां? बन्धीकृतानां। केन बन्धीकृतानां? पुलस्त्यान्वयपांसनेन, पुलस्त्यकुलस्य कलङ्कभूतेन रावणेन। कदा बन्धीकृताः ताः? पुरा पूर्वं बन्धीकृताः। अन्वयः नैरृतपाशजन्मा सह मारुतेः बन्धः पुरा पुलस्त्यान्वयपांसनेन बन्धीकृतानां सुरसुन्दरीणां बन्धविमोक्षहेतुः अभवत् इति अत्र अन्वयः भावः अस्ति। राक्षसानां यद् राक्षसैः मारुतेः यद् बन्धनं कृतं, तत् बन्धनम् अन्यस्य कस्यचित् मोक्षस्य कारणम् अभवत्। कस्य मोक्षस्य कारणम्? सुरसुन्दरीणां, स्वर्गलोककन्यानां तासां बन्धविमोक्षहेतुः अभवत्। ताः सुरसुन्दर्यः रावणेन पूर्वं बन्धीकृताः आसन्। अग्रे गद्यभागं पठामः। तदनन्तरम् इतरहनन असहतया निह्नुतस्य दिव्यास्त्रस्य प्रभावं विभावयन् पवनतनयं निजपितृसमीपम् उपनिनाय तदनन्तरं ततः परम् इतर हनन असहायतया। अत्र अस्माभिः एकः विषयः अवगन्तव्यः, यद् वाल्मीकिरामायणे बहु विस्तरेण दत्तमस्ति। इन्द्रजित् हनुमन्तं ब्रह्मास्त्रेण बद्धवान्। तस्य ब्रह्मास्त्रस्य महिमानम् अजानन्तः एते अन्यराक्षसाः किं कृतवन्तः? तद् तु मन्त्रकृतं बन्धनं किल ब्रह्मास्त्रं, तद् कदाचित् नेत्राभ्यां न दृश्येत, किन्तु तद् बन्धनम् अत्यन्तं दृढं बन्धनं भवति। तस्मात् बन्धनात् मोक्षं प्राप्तुं प्रायः कोऽपि न शक्नोति। सः तद् जानाति चेत् कदाचित् तस्मात् बन्धनात् मोक्षं प्राप्तुम् अर्हति। किन्तु अन्ये ये राक्षसाः एतत् अजानन्तः किं कृतवन्तः? अस्तु, एतम् इन्द्रजित् एतं बद्धवान्, इतोपि वयम् एतं सम्यक् बध्नीमः इति चिन्तयन्तः ते सर्वे अन्यरज्जुभिः एतस्य बन्धनं कृतवन्तः। किम् अभवत्? न सहते ब्रह्मास्त्रम् अन्यत् किमपि बन्धनम्। ब्रह्मास्त्रम् अन्यत् किमपि बन्धनं न सहते। यदि ब्रह्मास्त्रं प्रयुज्य यं कमपि कोऽपि बध्नाति, तदनन्तरम् अन्यबन्धनं भवति चेत् ब्रह्मास्त्रं विफलीभवति। ब्रह्मास्त्रेण सह अन्यत् बन्धनं न तिष्ठति। तदेकं। द्वितीयं, ते एतादृशम् एते राक्षसाः तस्य बन्धनं कृतवन्तः, आञ्जनेयः अपि ब्रह्मास्त्रेण अहं विमुक्तः इति ज्ञातवान्, कारणम् अन्यबन्धनानि आगतानि, सः नियमान् जानाति। अतः यद्यपि सः बन्धनात् विमुक्तः, ब्रह्मास्त्र बन्धनात् विमुक्तः अहम् इति जानन्नपि तद् गोपितवान् निह्नुतस्य, तस्य गोपनं कृतवान्, न प्रकाशितवान्। ओ इदानीम् अहं ब्रह्मास्त्रात् विमुक्तः, अन्य बन्धनात् सः आत्मानं मोचयितुं न जानाति वा? सरलतया मोचयितुं शक्नोति, किन्तु इदानीमपि ब्रह्मास्त्रेण बद्धा अहम् इव व्यवहृतवान्। कारणं तस्य लक्ष्यमस्ति अत्र युद्धकरणं न, रावणेन सह साक्षात्कारः। तदिदानीं सम्भवति इति कारणेन सः मौनम् आचरन् सः बद्धः इव व्यवहरति। अतः निह्नुतस्य दिव्यास्त्रस्य प्रभावं विभावयन्। पुनः ब्रह्मास्त्रस्य इतोपि एकः विषयः अस्ति। अस्तु, वयम् एवमपि वक्तुं शक्नुमः, इन्द्रजित् तान् राक्षसान् आदेष्टुं शक्नोति। किं वक्तुं शक्नोति? भवन्तः एतद् एताः रज्जवः सन्ति किल, एताः निष्कासयन्तु, अहं पुनः एतं ब्रह्मास्त्रेण बध्नामि इति वक्तुम् अर्हति। किन्तु तथा कर्तुं न शक्यते, कारणम् एकवारं प्रयुक्तमस्त्रं पुनः सकृत् प्रयुक्तं पुनः प्रभावी न भवति इति अर्थः। अतः एतत् सर्वं जानन् एतस्य प्रभावं सम्यक् अवगच्छति आञ्जनेयः, इन्द्रजित् अपि अवगच्छति। अतः एतत् सर्वं मनसि चिन्तयन् विचारयन् विभावयन् विभावरी चरपति तनूजः। विभावरी इत्युक्ते रात्रिः, निशा निशाचरपतिः, निशि चरन्ति किल, रात्रौ चरन्ति राक्षसाः। अतः विभावरीचराणां पतिः, स्वामी राक्षसराजः, तस्य तनूजः, तस्य पुत्रः किं कृतवान्? पवनतनयं, पवनपुत्रं, निशाचरपतिपुत्रः पवनपुत्रं स्वपितुः समीपं नीतवान् इति भावः। अत्र एषः एव अर्थः, इतरहनन असहतया। हननम् इत्युक्ते अत्र मारणम् अस्त्रम् इति अपि वयम् अर्थं प्रहारः अस्त्रम् इति अपि अर्थं स्वीकर्तुं शक्नुमः। अन्येन अस्त्रेण, ब्रह्मास्त्रात् ऋते, ब्रह्मास्त्रं विहाय अन्येन हस्त्रेण यद् प्रहारः, यद् हननं, तद् न सहते इति इतरहनन असहः। तस्य भावः इतरहनन असहता, तया निह्नुतस्य, निह्नुतं, हनु अपनयने, निह्नुते इति क्रियापदं, निह्नुतस्य, तिरोहितस्य। दिव्यास्त्रस्य प्रभावः, ब्रह्मास्त्रस्य सामर्थ्यं विभावयन्। ब्रह्मास्त्रस्य कीदृशं सामर्थ्यमस्ति? एकं तु ब्रह्मास्त्रम् एकमेव पर्याप्तम्, अन्यस्य अस्त्रस्य आवश्यकता नास्ति। किन्तु यदि ब्रह्मास्त्रः पूर्वं ब्रह्मास्त्रं पूर्वं प्रयुक्तं, ततः परम् अन्यं किमपि बन्धनं प्रयुक्तं चेत् पूर्वं कृतं ब्रह्मास्त्रं विफलं भवति, व्यर्थं भवति। पुनः सकृत् ब्रह्मास्त्रे प्रयुक्ते पुनः तस्मिन्नेव जने तस्मिन् समये तस्य प्रयोगः न शक्यः इति अपि एतस्य सामर्थ्यं, तादृशप्रभावं सम्यक् जानन् अस्तु इतः परम् एतेन युद्धकरणं निष्प्रयोजनाय इति मत्वा शीघ्रमेव स्वपितुः समीपम् एषः तं नीतवान्। विभावरीचरपति तनूजः, निशाचरपति पुत्रः इन्द्रजित् स्वपितुः समीपम् आञ्जनेयं नीतवान् इति भावः। अत्र रामायणश्लोकान् वयं पश्यामः, तत्र किं दत्तमस्ति विस्तरेण इति पश्यामः। सबद्धस्तेन वल्कलेन विमुक्तोऽस्त्रेण वीर्यवान्, अस्त्रबन्धस्स चान्यं हि न बन्धम् अनुवर्तते। अथेन्द्रजित्तं द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् विमुक्तमस्त्रेण जगाम चिन्ताम् अन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्। ब्रह्मास्त्रेण विमुक्तं द्रुमचीर वृक्षाणां चीरवल्कलैः बद्धं कपिसत्तमं कपिश्रेष्ठं तं दृष्ट्वा तं विचार्य वीरः इन्द्रजित् चिन्तां प्राप्तवान्। अन्येन बद्धः अपि अस्त्रम् अनुवर्तते किल, अन्येन एषः आञ्जनेयः बद्धः अभवत्। केन बद्धः? द्रुमचीरवल्कलैः बद्धः। तर्हि कथम् एतद् अस्त्रम् अनुवर्तते ब्रह्मास्त्रम्? न, वस्तुतः न अनुवर्तते, सः बद्धः इव व्यवहरति, सः बद्धः इव अत्र लीलां करोति। वस्तुतः तद् सत्यं न इति अवगतवान् इन्द्रजित्। पुनः किं चिन्तयति इन्द्रजित्? अहो, महत्कर्म कृतं निरर्थं न राक्षसैः मन्त्रगतिर्विमृष्टा, पुनश्च नास्त्रे विहते स्त्रमन्यत् प्रवर्तते संशयिता स्म सर्वे। अहो, अस्माभिः महत् कर्म निरर्थं कृतम्। महत् कर्म किम्? ब्रह्मास्त्रेण तस्य बन्धनं, तद् वल्कलास्त्रेण तस्य बन्धनं कृत्वा तद् निरर्थं कृतं, व्यर्थीकृतं। राक्षसैः मन्त्रगतिः न विमृष्टा, मन्त्रेण एतद् बन्धनं यद् जातं तद् तैः न अवगतं, न चिन्तितम्। अस्त्रे विहते, एकवारं ब्रह्मास्त्रं त्यक्तम्, एकवारं ब्रह्मास्त्रं विफलम् अभवत् चेत् अन्यत् अस्त्रं पुनः न प्रवर्तते, अन्यत् ब्रह्मास्त्रं पुनः अन्यत् किमपि अस्त्रं न प्रवर्तते। अतः वयं सर्वे संशयिताः स्मः, वयं संशयमापन्नाः। इदानीं श्लोकं पश्यामः। सोऽयं ददर्श दशकन्धर, लीलाद्रितोलन परीक्षित बाहुवीर्यम्, श्रीकृतेन्द्रपुरवारवधूकराग्र ूतचामर मरुच्चलितोत्तरीयम्, इदानीं यत् आञ्जनेयेन चिन्तितं तद् अभवत्, रावणसाक्षात्कारः अभवत्। सोऽयं, सः अयम् आञ्जनेयः ददर्श दृष्टवान्। कं दृष्टवान्? दशकन्धरं दृष्टवान्, रावणं दृष्टवान्। अत्र अन्यत् सर्वं प्रथमपदत्रयमेव, कर्तृपदं कर्मपदं क्रियापदम्, अन्यत् सर्वं विशेषणमस्ति कर्मपदस्य। सः अयम् आञ्जनेयः ददर्श, सः इति कर्तृपदं, ददर्श इति क्रियापदम्। कं ददर्श? दशकन्धरं ददर्श। इदानीम् अन्यत् पङ्क्तित्रये पदद्वयमेव अस्ति, दीर्घसमस्तपदम् अस्ति, पदच्छेदं कृत्वा पश्यामः। सः अयं ददर्श दशकन्धरम्, अन्धकारिलीलाद्रितोलनपरीक्षितबाहुवीर्यं, बन्दीकृतेन्द्रपुरवारवधुकराग्रव्याधूतचामरमरुच्चलितोत्तरीयम्। वस्तुतः अत्र किम् उक्तमस्ति, किम् उच्यते कविना इति चेत्, आञ्जनेयः यदा प्रविष्टवान् तदा रावणं दृष्ट्वा विस्मितः जातः। पूर्वमेव सः रावणप्रभावम् अवगतवान्, लङ्काप्रवेशसमये एव वयम् अवगतवन्तः। सः चिन्तां प्राप्तवान्, कथम् अस्माकं सेना एतां दुर्गमा लङ्का अस्ति, एतस्य प्रवेशः, एतस्य नगरस्य प्रवेशः एव बहु कठिनकरः इति भाति। एतं नगरं प्रविश्य कथं वा युद्धं कुर्युः अस्माकं सेना सैनिकाः इति, वानरसेना सैनिकाः इति सः चिन्तितवान्। इदानीं साक्षात् तं दृष्ट्वा आञ्जनेयः तस्य प्रभावं स्मृतवान्। कीदृशं प्रभावं स्मृतवान् इत्युक्ते, साक्षात् शिवस्य कैलासपर्वतमेव यः लीलया कम्पितवान् हस्ताभ्यां गृहीत्वा इति वयं कथां जानीमः. पुनः तं परितः स्वर्गलोककन्याः स्थिताः सन्ति. ताः किं कुर्वन्ति? चामरं वीजयन्ति, चामरं चालयन्ति. चामरचालनेन पवनः वाति, वायुः वाति. तेन वायुना रावणस्य उत्तरीयं कम्पते. तावदेव, यस्य उत्तरीयं चामरवीजनात् आगतपवनेन कम्पते. पुनः यः कैलासपर्वतमेव लीलया हस्ताभ्यां गृहीत्वा कम्पितवान्, तादृशं रावणम् अयम् आञ्जनेयः ददर्श इति एव तत्र भावः. अन्वयं पश्यामः, सः आञ्जनेयः, सः अयं तादृशः आञ्जनेयः यः वल्कलैः बद्धः, ब्रह्मास्त्रः विफलीभूतः इति ज्ञानन्नपि अहं बद्धः इव व्यवहृतवान्, तादृशः आञ्जनेयः इदानीं बद्धदशायाम् अयं रावणस्य सभायाम् अन्धकारिलीलाद्रितोलनपरीक्षितबाहुवीर्यं रावणं बन्दीकृतेन्द्रपुरवारवधूकराग्रव्याधूतचामरमरुच्चलितोत्तरीयं रावणं दशकन्धरं ददर्श. पदद्वयं कर्मपदस्य विशेषणं भवति. कर्मपदं किं? दशकन्धरम् इति कर्मपदं. दशकन्धरः रावणः. तस्य प्रथमविशेषणमस्ति अन्धकारिलीलाद्रितोलनपरीक्षितबाहुवीर्यम् इति एकविशेषणं. द्वितीयं विशेषणमस्ति बन्दीकृतेन्द्रपुरवारवधूकराग्रव्याधूतचामरमरुच्चलितोत्तरीयम् इति अस्ति. किम् इति पश्यामः. अन्धकारिलीलाद्रितोलनपरीक्षितबाहुवीर्यम्. अन्धकः इति एकः असुरः अस्ति आसीत्. अन्धकः, अन्धकस्य अरिः कः? शिवः. अन्धकः अरिः यस्य, सः अन्धकारिः इति. अन्धकारेः लीलाद्रिः, अन्धकारेः लीलापर्वतः कः? कैलासः, कैलासपर्वतः. अन्धकारेः शिवस्य लीलापर्वतस्य तोलनं, तोलनम् इत्युक्ते उन्नयनं, कराभ्यां तस्य उत्तोलनम्, उन्नयनम्, उत्थापनम्. तादृशम् उत्थापनं कृत्वा यस्य बाहुबलं प्रदर्शितम् अभवत्, परीक्षितम् अभवत्. उत्थापनेन यस्य भुजपराक्रमः परीक्षितः, तादृशं दशकन्धरं दशाननं. पुनः कीदृशं रावणं दृष्टवान् हनुमान्? बन्दीकृत इन्द्रपुरवारवधू, वारवधू वराङ्गनाः, इन्द्रपुरवराङ्गनाः, इन्द्रपुर स्वर्गलोक, इन्द्रस्य राज्यस्य वराङ्गनाः, स्वर स्त्रियः, ताः दासीकृताः अभवन् एतेन रावणेन. अतः बन्दीकृतानाम् इन्द्रपुरवरवधूनां कराग्रैः, कराग्रे करस्य अग्रभागे कराग्रैः व्याधूतानां चामराणां मरुत्. व्याधूत इत्युक्ते कम्पित, चालित. ताः चामरं चालयन्ति किल, तदेव अत्र उच्यते. व्याधूत, व्याधुनोति इति क्रिया, व्याधूत चामर. तस्मात् चामरात् मरुत् वाति किल, मरुत्. तेन मरुता तस्य उत्तरीयं कम्पते रावणस्य. मरुच्चलित उत्तरीयं, चलितोत्तरीयं, चलितम् इत्युक्ते कम्पितम्. दासीकृतानाम् इन्द्रलोककन्यानां हस्ताग्रभागैः चालित चामराणां पवनैः यस्य उत्तरीयं चलितं कम्पितं, तादृशं दशकन्धरं रावणम् आञ्जनेयः अपश्यत्. प्रभावार्थः सरल लघुवाक्यैः दत्तः अस्ति. रावणसमीपं नीतः हनुमान् विस्मयाविष्टः सन् रावणं दृष्टवान्. सः च रावणः महादेवस्य कैलासमेव उत्तोल्य स्वबाहुबलं प्रदर्शितवान् आसीत्. रावणेन बन्दीकृताः स्वर्गलोककन्याः तं परितः स्थिताः चामरं विजयन्ति स्म. तस्मात् चालितेन पवनेन तस्य उत्तरीयं वेपते कम्पते स्म. तादृशं रावणम् आञ्जनेयः दृष्टवान्. दीर्घसमस्तपदं यत्र यत्र भवति तत्र अस्माभिः एकः विषयः अवगन्तव्यः यत् यावत् शक्यं पदद्वयं स्वीकृत्य लघु लघु समस्तपदानि निर्माय क्रमेण वयं पूर्णसमस्तपदं प्रति गच्छामः. अत्र उदाहरणदृष्ट्या पश्यामः चेत् अन्धकारि लीलाद्रितोलन परीक्षित बाहुवीर्यम्. अन्धकः अरिः यस्य सः अन्धकारिः इति प्रथमं समस्तपदम्. अन्धकारेः लीलाद्रिः शिवस्य लीलाद्रिः लीलापर्वतः अन्धकारि लीलाद्रिः. पुनः तोलनम् इत्युक्ते उन्नयनम्. अन्धकारि लीलाद्रेः तोलनम् अन्धकारि लीलाद्रितोलनम्. बाहुवीर्यं बाह्वोः वीर्यं पराक्रमः. अन्धकारि लीलाद्रितोलनेन परीक्षितं बाहुवीर्यं यस्य बहुव्रीहि समासः. अन्धकारि लीलाद्रितोलन परीक्षित बाहुवीर्यः तं रावणम् इति. तथैव द्वितीयम् अतिदीर्घ समस्तपदम् बन्दीकृतेन्द्रपुरवारवधुकराग्रव्याधूतचामरमरुच्चलितोत्तरीयम् इति. पश्यतु वारा इत्युक्ते वराङ्गना इति वदामः किल, सुन्दरस्त्रियः. वाराः वध्वः वारवध्वः इन्द्रपुरस्य वारवध्वः इन्द्रपुरवारवध्वः बन्दीकृताः इन्द्रपुरवारवध्वः बन्दीकृतेन्द्रपुरवारवध्वः व्याधूतानि चामराणि कम्पितानि चामराणि व्याधूतचामराणि कराग्रैः व्याधूतचामराणि कराग्रव्याधूतचामराणि कराग्रव्याधूतचामराणां मरुत् वायुः. पुनः चलितम् उत्तरीयं चलितोत्तरीयं कराग्रव्याधूतचामरमरुता तेन पवनेन चलितोत्तरीयं कराग्रव्याधूतचामरमरुच्चलितोत्तरीयम्. इदानीं पश्यतु बन्दीकृतेन्द्रपुरवारवधूनां कराग्रव्याधूतचामरमरुच्चलितोत्तरीयं यस्य सः बन्दीकृतेन्द्रपुरवारवधूकराग्रव्याधूतचामरमरुच्चलितोत्तरीयः बहुव्रीहिः तं रावणम् इति अत्र. अत्र पूर्वम् अस्माभिः पठितम् एकम् अंशमपि अहं स्मारयामि, मया विस्मृतमासीत्. निशाचरपतेः शोकरसं नेतुं रक्षसां चमूं हन्तुं तस्य अन्तःपुरयोषितां मानं विना रोदनं रचयितुं सूर्याचन्द्रमसोः इति पदमस्ति प्रवेशविकलां लङ्कापुरीम्. वस्तुतः सूर्यः इति अकारान्तशब्दः एव किल. मनसि प्रश्नः उदेति यत् कथं सूर्याचन्द्रमसोः इति अस्ति, सूर्यचन्द्रमसोः इति न वा. अत्र एक व्याकरणविशेषः अस्ति, तत् पश्यामः. सूर्यः च चन्द्रमाः च सूर्याचन्द्रमसौ तयोः इति विग्रहवाक्यम्. देवताद्वन्द्वे च इति एकं सूत्रमस्ति. तेन सूत्रेण किं भवति, यदा प्रसिद्धदेवताद्वयस्य समस्तपदं भवति तदा पूर्वतन पदस्य पूर्वपदस्य दैर्घ्यं भवति. यथा सूर्य इति न सूर्याचन्द्रमसोः, तथैव मित्रावरुणौ इति अपि अत्र द्रष्टुं शक्नुमः. पुनः एकं वार्तिकमस्ति, वायुशब्दप्रयोगे दैर्घ्यं न भवति. वायुशब्दप्रयोगे प्रतिषेधः, अग्निवायुः, वायवग्नि, अग्निवायु इति न भवति इति अर्थः. अत्र अद्य वयम् अत्र विरमामः. अग्रे अग्रिमगुरुवासरे पुनः मेलिष्यामः. शान्तिमन्त्रं श्वः समापयामः. सर्वे भवन्तु सुखिनः,
सर्वे भद्राणि पश्यन्तु, ॐ धन्यवादः भगिनी.
धन्यवादः, पुनर्मिलामः. नमस्ते, शुभरात्रि.
शुभरात्रि. शुभरात्रि. शुभरात्रि. धन्यवादः.
अग्रिम गुरुवासरे कक्षा अस्ति.
आम् आम्.